मयूरीश माद्यं नताः स्मो नताः स्मः। जगत्वन्दमेकं परोङ्कारमेकं गुणानां परं कारणं निर्विकल्पं जगत्पालकं हारकं तारकं तं मयूरीश माद्यं नताः स्मो नताः स्मः। सर्वदा विघ्ननाशं सदा भक्तपोषं परमज्ञानकोशं मयूरीश माद्यं नताः स्मो नताः स्मः। अनादिं गुणादिं सुरादिं शिवाया महातोषदं सर्वदा सर्ववंद्यं सुरारंतकं भक्तिमुक्ति प्रदंतं मयूरेश माद्यं नताः स्मो नताः स्मः। परं मायिनं मायिनामाप्यगम्यं मुनिध्येयमाकाशकल्पं जनेशं असंख्यावतारं निजाज्ञाननाशं मयूरेश माद्यं नताः स्मो नताः स्मः। अनेकक्रिया कारणं श्रुत्यगम्यं त्रयीबोधितानेककर्मादिबीजं क्रियासिद्धि हेतुं सुरेन्द्रादिसेव्यं मयूरीश माद्यं नताः स्मो नताः स्मः। महाकालरूपं निमिषादिरूपं कलाकल्परूपं सदा गम्यरूपं जनज्ञानहेतुं नृणां सेद्धिदन्तं मयूरीश माद्यं नताः स्मो नताः स्मः। महिषादिदेवैः सदा सेव्यपादं सदा रक्षकं योगिनां चित्स्वरूपं सदा कामरूपं कृपाम्बोनिधिं तं मयूरेश माद्यं नताः स्मो नताः स्मः। सदा भक्तानां त्वं प्रसव परमानन्दसुखदं यतस्त्वं लोकानां परमकरुणामाशुतनुषे षडूर्मीणां वेगं सर्वर्सदा न शैविभो ततो मुक्तिश्लाघ्य तव भजनोऽत्यनन्तसुखदात्। किमस्माभिस्तोत्रं गजवदनतिशक्यमतुलं विधातुं वरम्यं गुणनिधिरसि प्रेम जगतां न चास्माकं शक्तिस्तव गुणगणं वणितुं हो त्वदीयोऽयं वारान् निधिरिव जगसर्जनविधिः। इदं यः पठते स्तोत्रं सकामा लभते खिला सहस्रावर्तनात्काराग्रहस्थं मोचये जनं अयुतावर्तनान्मर्त्यो असाध्यं यत् साधयेत् क्षणात्। सर्वत्र जयमाप्नोति श्रियं परं दुर्लभां पुत्रवान् धनवांश्चैव वशतामखिलं नये।